इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। संचार साथी चलदूरभाषीय तन्त्रांशस्य वर्धमानस्य स्वीकार्यता दृष्ट्या सर्वकारेण दूरवाण्याम् अस्य तन्त्रांशस्य पूर्वस्थापनम् अनिवार्यं न कर्तुं निर्णयः कृतः। प्रधानमन्त्रिणा नरेन्द्रमोदिना दिव्याङ्गजनानां कृते सम्मानं सुलभतां समानावकाशाः च सुनिश्चेतुं सर्वकारस्य संकल्पं पुनः दृढीकृतम्। सूचना प्रसारण मंत्री अश्विनी वैष्णव अवदत् यत् मिथ्या वार्ता लोकतंत्रस्य कृते विभीषिका अस्ति। सः अवदत् यत् सर्वकारः भारतीय प्रेस परिषद् च उभावपि कस्यापि टीवी वाहिन्याः वार्तापत्रस्य वा विरुद्धं प्राप्त परिवादान् सक्रियतया पश्यन्तौ स्तः। अपि च पुरुष क्रिकेट क्रीडायां रायपुर नगरस्य शहीद वीर नारायण सिंह अन्ताराष्ट्रिय क्रीडांगणे तिसृषु एकदिवसीय क्रीडा श्रृंखलासु द्वितीयायां क्रीडायां दक्षिण अफ्रीका देशस्य सम्मुखे भारतेन 950 धावनांकानां लक्ष्यं स्थापितम्। अथ वार्ताः विस्तरेण। संचार साथी चल दूरभाषीय तन्त्रांशस्य वर्धमानस्य स्वीकार्यतायाः दृष्ट्या सर्वकारेण दूरवाण्याः निर्मातृभ्यः अस्य तन्त्रांशस्य पूर्वस्थापनम् अनिवार्यं न कर्तुं निर्णयः कृतः अस्ति। सर्वकारेण स्पष्टीकृतं यत् नागरिकाः यदा इच्छन्ति तदा तन्त्रांशं निष्कासयितुं शक्नुवन्ति, तथा च तन्त्रांशे उपयोक्तॄणां रक्षणम् अतिरिच्य अन्यत् किमपि कार्यं नास्ति इति। संचार मन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् अद्यावधि 4.1 कोटि जनाः उपयोक्तारः संचार साथी तन्त्रांशं स्थापितवन्तः। केन्द्रीय संचार मन्त्री ज्योतिरादित्य सिंधिया अद्य विपक्षस्य गूढचर्यायाः आरोपान् निराकृतवान्। सः अवदत् यत् संचार साथी ऐप द्वारा गूढचर्या न सम्भवः न भविष्यति इति। अद्य लोकसभायामेकस्य प्रश्नस्य प्रत्युत्तरे श्री सिंधियावर्यः स्पष्टं कृतवान् यत् उपयोक्तारः स्वसौख्येन पञ्जीकरणं कृत्वा अस्य लाभान् प्राप्तुम् ऐप इत्येतं सक्रियं कर्तुं शक्नुवन्ति, तथा च ते कदापि स्वस्य उपकरणात् तत् निष्क्रियं निष्कासयितुं वा शक्नुवन्ति। सः अवदत् यत् नरेन्द्रमोदिनः प्रशासनेन नागरिकान् कपटक्रियाकलापात् रक्षयितुम् एषा सुविधा प्रदत्तास्ति।
संचार साथी पोर्टल की हमने शुरुआत की थी 2023 में और संचार साथी ऐप का प्रयोग हमने 2025 में शुरुआत किया। संचार साथी एक ऐसा ऐप है जिसके आधार पर जन भागीदारी के आधार आज देश की एक एक जनता और नागरिक अपने आप को सुरक्षित रख सकता है फ्रॉड से, स्टोलन मोबाइल से, अपने स्टोलन मोबाइल को रिकॉर्ड कर सकता है, रिपोर्ट कर सकता है।
राष्ट्रपति द्रौपदी मुर्मू अद्य अवदत् यत् समाजं यथार्थरूपेण विकसितः तदा एव वक्तुं शक्यते यदा दिव्याङ्गजनैः सह समानव्यवहारः भवेत्। सावोचत् यत् तेषां प्रति अनुकम्पया न अपितु आदरेण सम्मानेन च व्यवहारः करणीयः। राष्ट्रपतिः नवदिल्ल्यां दिव्याङ्गजनानां सशक्तिकरणस्य राष्ट्रियपुरस्काराणां समये एतदुक्तवती। अस्मिन् कार्यक्रमे सा निःशक्तजनानां शक्तिकरणार्थं व्यक्तिनां संस्थानां च अनुकरणीय प्रयासानां कृते राष्ट्रिय पुरस्कारान् प्रदत्तवती। कार्यक्रमं सम्बोधयन्ती राष्ट्रपते प्रोक्तवती यत् तेषाम् अविश्वसनीय उपलब्धयः सर्वेषां कृते प्रेरणा सन्ति, विशेषतः क्रीडायाः माध्यमेन तेषाम् उन्नत्यै सर्वकारस्य भूमिकामपि प्रकाशितवती।
समाज और सरकार की सजगता और सक्रियता के परिणाम स्वरूप वर्ष 2024 में पैरालंपिक्स में हमारे खिलाड़ियों ने 29 पदक प्राप्त किए थे। दिव्यांग खिलाड़ियों के लिए विश्व स्तरीय सुविधाओं और प्रतिस्पर्धाओं को आयोजन करके सरकार द्वारा प्रतिभाशाली खिलाड़ियों की प्रतिभा को निखारने के अनेक प्रयास किए जा रहे हैं।
प्रियः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना दिव्याङ्गजनानां कृते सम्मानं सुलभतां समानावकाशाः च सुनिश्चेतुं सर्वकारस्य संकल्पं पुनः दृढीकृतम्। सामाजिक पटले लिखिते सन्देशे श्रीमोदी अवदत् यत् दिव्याङ्गजनाः स्वस्य सृजनात्मकतायाः दृढनिश्चयस्य च माध्यमेन विविधक्षेत्रेषु उत्कृष्टतां प्राप्तवन्तः। श्रीमोदी अवदत् यत् भारते विविधिद्वारा सुलभ संरचनायाः माध्यमेन समावेशे शिक्षानीतेः माध्यमेन सहायक प्रौद्योगिकीनां नवप्रकल्पानां माध्यमेन च दिव्याङ्गजनकल्याणाय प्रतिबद्धतां दृढीकृतवान्। सूचना प्रसारण मंत्री अश्विनी वैष्णव अवदत् यत् मिथ्या वार्ता लोकतंत्रस्य कृते विभीषिका अस्ति। सः सामाजिक पटलेषु मिथ्या वार्तासु तथा एआई द्वारा निर्मितेषु गहन मिथ्या वार्तासु कठोर कार्याचरणस्य आवश्यकतायाः विषये अवधानं प्रदत्तवान्। अद्य लोकसभायां प्रश्नकाले प्रत्युत्तरे श्री वैष्णवः अवदत् यत् एआई इत्यनेन उत्पद्यमानानां गहन मिथ्याचरणाम् अभिज्ञानार्थं तेषां विरुद्धं कार्याचरणाय च नूतनः प्रारूप नियमः प्रकाशितः अस्ति। सः अवदत् यत् सर्वकारः भारतीय प्रेस परिषद् च उभावपि कस्यापि टीवी वाहिन्याः वार्तापत्रस्य वा विरुद्धं प्राप्त परिवादान् सक्रियतया पश्यन्तौ स्तः।
हमें सोशल मीडिया पर फेक न्यूज पर एआई जनरेटेड डीप फेक पर स्ट्रिक्ट एक्शन लेने की जरूरत है। जिस तरह से सोशल मीडिया प्लेटफॉर्म्स का उपयोग करके एक तरीके से कई ऐसे इकोसिस्टम बन गए हैं जो कि भारत के संविधान को फॉलो नहीं करना चाहते, बहुत तरह से इस पार्लियामेंट द्वारा बनाए हुए कानून को भी पालन नहीं करना चाहते, उसमें स्ट्रिक्ट एक्शन लेने की और कड़े नियम बनाने की सख्त जरूरत है।
विश्व ऋतु संघटनेन WMO इत्यनेन एशिया महाद्वीपे प्रचंड वृष्ट्या प्राणघातक जलप्लावनस्य संचेतना प्रसारिता। विनाशकारी प्रावृत वृष्ट्या उष्णकटिबंधीय चक्रवातेन च दक्षिण दक्षिण पूर्व एशिया खंडेषु विनाशकारी जलप्लावनं जातम्। शतशः जनाः मृताः, समुदायाः विस्थापिताः, प्रमुखाः आर्थिकावधानं च जातम् इति विश्व ऋतु संघटनेन WMO इत्यनेन मंगलवासरे जिनेवा नगरे संयुक्त राष्ट्र संघस्य वार्ताहर सम्मेलने उक्तम्। WMO अधिकारिणा क्लेयर नुलिस इत्येषा अकथयत् यत् फिलीपींस, थाईलैंड, वियतनाम, श्रीलंका देशाः च इत्येतेषु देशेषु सर्वाधिकं प्रभाविताः सन्ति। रेलमंत्री अश्विनी वैष्णव अवदत् यत् अमृत भारत स्थानक योजनया 75 रेलस्थानकानां कार्यं पूर्णम्। लोकसभायाम् एकस्य प्रश्नस्य लिखित प्रत्युत्तरे श्री वैष्णव अवदत् यत् एषा योजना प्रतीक्षालयः, शौचालयः, आसनव्यवस्था, पेयजलानि, वाहनस्थापनक्षेत्राणि तथा दिव्याङ्गजनानां कृते सुविधाभिः सह रेलस्थानकानाम् उन्नतीकरणे केन्द्रिता अस्ति। केन्द्रीय खाद्य सार्वजनिक वितरण उपभोक्तृ कार्य मन्त्रिणा प्रह्लाद जोशी इत्यनेन उक्तं यत् सम्पूर्णे देशे प्रायः 100% खाद्यापूर्ति पत्राणि अधुना डिजिटल रूपेण सन्ति इति। लोकसभायाम् अद्य प्रश्नोत्तरकाले अनुपूरक प्रश्नानाम् उत्तराय श्री जोशी अवदत् यत् प्रायः सर्वे 20.85 कोटिषु गृहेषु खाद्यापूर्ति पत्राणि डिजिटली कृतानि सन्ति। असौ उक्तवान् यत् प्रशासनं प्रधानमन्त्री निर्धन कल्याण अन्न योजनायाः अन्तर्गतं लाभार्थिभ्यः निःशुल्कम् अन्नं ददाति यत् 29,000 प्रवर्तते इति। अस्याः योजनायाः अन्तर्गतं योग्याः परिवाराः प्रतिव्यक्ति प्रतिमासं 5 किलोग्राम निःशुल्कम् अन्नधान्यं प्राप्नुयुः।
2020 में कोविड के समय से लेके 2029 तक प्रधानमंत्री गरीब कल्याण अन्न योजना के तहत हम सबको अनाज बांट रहे हैं। ऑल 20.58 करोड़ रेशन कार्ड्स एंड 7.2 करोड़ बेनिफिशियरीज आर डिजिटाइज्ड। आज ऑलमोस्ट 100% डिजिटाइजेशन करके हम आगे बढ़ रहे हैं।
पुरुष क्रिकेट क्रीडायां तिसृषु एक दिवसेषु क्रीडा श्रृंखलासु द्वितीयायां क्रीडायां दक्षिण अफ्रीका देशस्य सम्मुखे भारतेन 59 अधिक 300 धावनांकानां लक्ष्यं स्थापितम् इति वार्ताः।